स्तुषेजनम् संव्रतन्नव्यसेभिर्गेर्भिरमित्रावरुणासुम् नजन्ता तागमन्त्वथ इह श्रवन्तसक्षत्रासो वरुणा मित्रा अग्निः विश विष ईड्यमध्वरेष्वद्रक्तक्रतुमरतिञ्जुपत्योः दिवस्य शंसहसः सोनमग्निञ्जज्ञस्य केतुमरुषं यजध्ये अरुषस्य दुहितराविरो अपेस्त्रभिरन्यापि विषे सूरो अन्या निथस्तुरा अभिचरन्ति पावके मन्मश्रुतन्नक्षतरच्यमाने प्रवाजुमच्छा बृहते मनीषा बृहद्रजिम् विश्ववारम्रथप्रा द्युतद्या मानियुतः पत्यमानः कविः कविमिजक्षसि प्रयज्य समेव पुच्छदयदश्विनोर्यरथो विरुक्मान्मनसा युजानः येन नराना सत्येष जध्ये भर्तिर्जाधस्तनजायत्मने च पर्जन्यवाता वृषभा पृथिव्याः पुरे एषाणि जिन्वतमप्यानि सत्यश्रुतः कवयोजस्य गेर्भिरजगतस्थातर्जगदा कृणुध्वम् भावे रवे कन्या चित्रायुः सरस्वते वीरपत्नीधियन्धात् नाभिरच्छिद्रम् शरणम् सजोषा दुराधर्षम् गृणते शर्मजम् सत पथस्पथः परिपतिम् वचस्याकामेन कृतो अभ्यानलर्कम् स नो रासच्छुरुधश्चन्द्राग्राधियम् धियम् शेषधाति प्रपोषा प्रथमभाजै यशसम् वयोधाम् सुपाडिम् देवम् सुगभस्ति बृभ्रम् होता यक्षद्यजतम् पस्त्या नामग्निस्त्वष्टारम् सुहवम् विभावा भुवनस्य पितरम् गीर्भिराभिरुद्रम् दिवा वर्धजा रुद्रमक्तौ बृहन्तमृष्वपचरम् सुषुम्नवृधघुवेम कविने शितासाः आयुवानः कवयो जग्निजा सोमरुतो गन्तगृणतो वरस्याम् चित्रम् चिद्धिजन्मथा वृधन्त इत्थानक्षन्तो नरो अङ्गिरस्वत प्रवीराज प्रतपसे तु राजा च आजोथेव पशुरक्षिरस्तम् सपि स्पृशति तन्विश्रुतस्य स्त्रभिर्ननाकम् वचनस्य विपाह यो रजांसि विममे पार्थिवादित्रश्चिद्विष्टुर्मनवे बाधिताय तस्य ते शर्मन्नुपदद्यमाने राजामदे मतन्वा आतना च तन्नाहिर्बध्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता च नो अधात् ततोषधेभिरभिरातिशा चो भगः पुरम् धर्जिन्वतु प्रराजे नूनो रजम् रथ्यम् चरषणिप्राम् पुरवीरम् महरतस्य गोपाम् क्षयम् दाता चरञ्जेन जनान् स्पृधो अदे वीरभिचक्रमामविष आदे वीरभ्या अश्नवा आमा